अथ पञ्चदशः सर्गः अथ भूतानि वार्त्रघ्नशरेभ्यस्तत्र तत्र सुः भेजे दिशः परित्यक्तमहेश्वासा च सा च मूः अथेति अथ अनन्तरम् तत्र रणे भूतानि सर्वप्राणिनः वृत्रम् हतवानिति वृत्रः इन्द्रः ब्रह्मभ्रूणवृत्रेषु क्विप् तस्य अपत्यम् पुमान् वार्त्रघ्नः अर्जुनः तस्यापत्यम् इत्यण्प्रत्ययः तस्य शरेभ्यः तत्रसुः बिभ्युः वा जृभ्रमुत्रसाम् इति विकल्पात् एत्वाभ्यासलोपाभावः सा चमूश्च इषवः अस्यन्ते एभिः इति इश्वासाः धनूंषि धनुश्चापोऽस्त्रमिश्वासः इति हेमचन्द्रः अकर्तरि च कारके संज्ञायाम् इति कर्णे घञ् परित्यक्ताः महान्तः इश्वासाः ययासा परित्यक्त आयुधा इत्यर्थः दिशः भेजे पलायाञ्चक्रे इत्यर्थः अत्र भूतत्राससेनापलायनयोः समुच्चयकथनात् भिन्नविषयः क्रियासमुच्चयोऽलङ्कारः गुणक्रियायौगपद्यम् समुच्चयः इति सामान्यलक्षणम् तस्य यमकेन संसृष्टिः अपश्यद्भिरिवेशानम् रणान्निववृते गणैः मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमज्ज्वलितम् मनः अपश्यद्भिरिति गणैः प्रमथैः ईशानम् स्वामिनम् शिवम् पुरोवर्तिनमिति भावः अपश्यद्भिरिव रणात् निववृते निवृत्तम् भावे लिट् तथा हि कृच्छ्रेषु आपत्सु सम्भ्रमेण साध्वसेन ज्वलितम् तप्तम् सम्भ्रमः साध्वसेऽपि स्यात् इति विश्वः मनः मुह्यत्येव अतः पुरोवर्तिनोऽपि अदर्शनम् उपपद्यते इति भावः खण्डिता शंसया तेषाम् पराङ्मुखतयातया आविवेश कृपाकेतौ कृतोच्चैर्वानरम् नरम् खण्डितेति खण्डिता ध्वस्ता आशंसा जयाशा यस्याः तया तेषाम् गणानाम् सम्बन्धिन्या तया अतिसन्निकृष्टया इत्यर्थः पराङ्मुखतया रणवैमुख्येन पलायनेनेत्यर्थः केतौ ध्वजे कृतः आरोपितः उच्चैः उन्नतः वानरः हनुमान् येन तम् नरम् पुरुषम् कपिध्वजमित्यर्थः कृपा करुणा आविवेश तदीयदुर्दशाम् दृष्ट्वा स कृपाविष्टोऽभूदित्यर्थः यमकालङ्कारः आस्थामालम्ब्य नीतेषु वशम् क्षुद्रेश्वरातिषु व्यक्तिमायाति महताम् माहात्म्यमनुकम्पय आस्थामिति आस्थाम् यत्नम् आलम्ब्य आस्थात्वालम्बनास्थानयत्नापेक्षासु कथ्यते इति विश्वः वशम् नीतेषु क्षुद्रेषु दुष्टेषु अरातिषु शत्रुषु विषये अनुकम्पया कृपया महताम् वीराणाम् माहात्म्यम् महानुभावत्वम् व्यक्तिम् स्फुटताम् आयाति प्राप्नोति स्वपौरुषनिर्जितेषु अरातिष्वपि करुणा भूषणमेव महतामिति भावः ससासिस्सासुसुस्सासु येयायेयायययः ललौ लीलाम् ललोलोलः शशी शशिशुशीशशन् ससासिरिति सः असिना वर्तमानः सासिः सखड्गः असून् सुबन्ति प्रेरयन्तीति असुसुबः बाणाः शूप्रेरणे इति धातोः सत्सूद्विष इत्यादिना क्विप् असुसूभिः सह वर्तते इति सासुसूः सबाणः अस्यन्ते क्षिप्यन्ते शराः अनेनेति आसः धनुः अकर्तरि च कारके संज्ञायाम् इति घञ् आसेन सह वर्तत इति सासः सचापः सर्वत्र तेन सहेति तुल्ययोगे इति बहुव्रीहिः येयाः यातव्याः यानसाध्याः अयेयाः अयातव्याः यानम् विनैव साध्याः अचो यत् इति यत्प्रत्ययः येयाश्च अयेयाश्च येयायेयाः तेषाम् द्वयानाम् आये स्वर्णगजादिलाभे याति प्राप्नोतीति येयायेयाययः अयः शुभावह दैवम् यातीति अययः येयायेयाययश्च असौ अययश्चेति येयायेयाययाययः धाधातोः उभयत्रापि आतोऽनुपसर्गे कः इति कप्रत्ययः अतो ललति विलसतीति ललः ललविलासे पचाद्यच् अलोलः अचपलः शशिनः ईशः शिवः तस्य शिशुः स्कन्दः तम् शृणाति हिनस्तीति शशीशशिशुषीः क्विप् शशन् प्लुतगतिम् कुर्वन् शशप्लुतगतौ इति धातोः शत्रुप्रत्ययः सः अर्जुनः लीलाम् शोभाम् ललौ प्राप ला आदाने कर्तरि लिट् एकाक्षरपादः त्रासजिह्मम् यतश्चैतान् मन्दमेवान्वियायसः नातिपीडयितुम् भग्नान् इच्छन्ति हि महौजसः त्रासेति सः अर्जुनः त्रासजिह्मम् भयक्लिष्टम् यथा तथा यतः गच्छतः पलायमानान् इत्यर्थः एतान् गणान् मन्दमेव अन्वियाय अनुजगाम तथा हि महौजसः महानुभावाः भग्नान् अतिपीडयितुम् नेच्छन्ति अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा अथेति अथ अग्रे बलानामित्यर्थः हसता तद्भङ्गदर्शनात् स्मयमानेन साचिस्थितेन तन्निवारणाय तिर्यग्व्यवस्थितेन तिर्यगर्थे साचितिरः इत्यमरः स्थिरकीर्तिना स्वयम् अभङ्गत्वादिति भावः किञ्चित् ईषत् आयस्तम् खिन्नम् चेतः यस्य तेन स्वकीयगणभङ्गात् ईषत्खिन्नचित्तेन सेनान्या स्कन्देन पार्वतीनन्दनस्कन्दः सेनानीरग्निभूर्गुहः इत्यमरः ते गणाः प्रमथादयः जगदिरे उक्ताः ओष्ठ्यवर्णाभावात् निरौष्ठ्यमेतत् अथ एकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह मा विघासिष्टेत्यादिना। मा विखासिष्ट समरम् समरन्तव्यसं यतः क्षतम् क्षुण्णा सुरगणैः अगणैरिव किम् यशः मेति रन्तव्यम् रमणम् क्रीडा बहुलग्रहणात् भावे तव्यप्रत्ययः संयत् युद्धम् समुदायस्त्रियः संयत् समित्याजिसमिद्युधः इत्यमरः समे रन्तव्यसंयती येषाम् ते समरन्तव्यसंयतः तुल्यक्रीडासङ्गराः इति तेषाम् सम्बोधनम् यूयम् समरम् सङ्ग्रामम् मा विहासिष्ट न त्यजत जहातेः माङि लुङ् मध्यम बहुवचनम् क्षुण्णाः पराजिताः असुरगणाः यैः तैः भवद्भिरिति शेषः अगणैरिव गणेभ्यः अन्यैरिव किम् किमर्थम् यशः क्षतम् नाशितम् नैतद्युक्तम् महाशूराणाम् भवादृशानामित्यर्थः विवस्वदम् सुसंश्लेषद्विगुणीकृततेजसः अमीवो मोघमुद्गूर्णाः हसन्तीव महाशयः विवस्वदिति विवस्वत् अंशुसंश्लेषेण सूर्यकिरणसम्पर्केण द्विगुणीकृतानि उत्तेजितानि तेजांसि येषाम् ते तथोक्ताः मोघम् व्यर्थम् उद्गूर्णाः उद्यताः गुरी उद्यमने इति धातोः कर्मणि क्तः वः युष्माकम् अमी महाशयः खड्गाः हसन्तीवेति उत्प्रेक्षा किम् पलायमानानाम् खड्गैरिति हासः वने वने वनसदाम् मार्गम् मार्गमुपेयुषाम् वाणैर्बाणैः समासक्तम् शङ्के शङ्केन शाम्यति वन इति वनसदाम् वनेचराणाम् अवने रक्षके वने मार्गम् मृगसम्बन्धिनम् मार्गम् पन्थानम् उपेयुषाम् पलायमानानामित्यर्थः युष्माकमिति शेषः वाणो ध्वनिरेषाम् अस्तीति तैः वाणैः ध्वनियुक्तैः वनसंशब्दने इति धातोः घञ् ततः अर्ष आदिभ्य इति अच्प्रत्ययः यमकत्वात् बवयोरभेदः उक्तम् च रलयोर्डलयोस्तद्वज्जययोर्बवयोरपि शसयोः मनयोश्चान्ते सविसर्गाविसर्गयोः सबिन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम् इति बाणैः शरैः समासक्तम् समासिञ्जितम् अशम् दुःखम् तत् केन शाम्यतीति शङ्के केनोपायेन शाम्येदिति विचारयामीत्यर्थः पातितोत्तुङ्गमाहात्म्यैः संहृता यतकीर्तिभिः गुर्वीम् कामापदम् हन्तुम् कृतमावृत्तिसाहसम् पातितेति पातितम् भ्रंशितम् उत्तुङ्गमाहात्म्यम् उन्नतभावः यैः तैः संहृताः आहृताः आयताः विस्तृताः कीर्तयः यैः तैः युष्माभिरिति शेषः काम् गुर्वीम् आपदम् हन्तुम् न काञ्चिदपीत्यर्थः आवृत्तिः युद्धान्निवृत्तिः सैव साहसम् कृतम् अतः पापात् अन्यन्न किञ्चित् फलमस्तीति भावः तदुक्तम् मनुना यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः भर्तुर्यद्दुष्कृतम् किञ्चित् तत्सर्वम् प्रतिपद्यते यच्चास्य सुकृतम् किञ्चित् अमुत्रार्थमुपार्जितम् भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु इति नासुरोऽयम् न वा नागो धरसंस्थो न राक्षसः नासुखोऽयम् न वा भोगो धरणिस्थो हि राजसः नेति किञ्च अयम् असुरः दैत्यः न नागः नागराजो वा पन्नगश्च न धर इव संस्था यस्य सः धरसंस्थः पर्वताकारः अहार्यधरपर्वताः इत्यमरः संस्था व्यवस्थाप्रणिधि समाप्त्याकारमृत्युषु इति वैजयन्ती राक्षसो न किन्तु अयम् सुखयतीति सुखः सुखसाध्यः इत्यर्थः नवाभोगः अभिनवप्रयत्नः महोत्साहः इत्यर्थः आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि इति विश्वः धरणिस्थः भूतलचारी राजसः रजोगुणप्रधानः न पुरुषः हि कश्चिन्मानुष इत्यर्थः पुरुषाः पूरुषा नरः मनुष्या मानुषामर्त्याः मनुजा मानवानराः इत्यमरः अतः न पलायनम् उचितमिति भावः गोमूत्रिकाबन्धः वर्णानामेकरूपत्वम् यद्येकान्तरमर्धयोः गोमूत्रिकेति तत्प्राहुः दुष्करम् तद्विदो विदुः इति लक्षणात् षोडशकोष्ठद्वये अर्धद्वयम् क्रमेण विलिख्य एकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः मन्दमस्यन्निशुलताम् घृणया मुनिरेशः वः प्रणुदत्यागतावज्ञम् जघनेषु पशूनिव मन्दमिति एष मुनिः घृणया कृपया इषुम् लताम् शाखामिव मन्दम् अस्यन् क्षिपन् वः युष्मान् पशूनिव आगतावज्ञम् यथा तथा जघनेषु प्रणुदति चोदयति किमतः परम् कष्टमस्तीति भावः ननो ननुन्नो नुन्नो नो नाना नाना नना ननु नुन्नो नुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् नेति पदच्छेदस्तावत् न ना ऊननुन्नः नुन्नोनः ना अना नानाननाः ननु नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत् अथ योजना हे नानाननाः नानाप्रकाराणि आननानि येषाम् ते नानाविध आस्याः इत्यर्थः ऊनेन निकृष्टेन नुन्नः विद्धः ऊननुन्नः यः सः ना न पुरुषो न तथा नुन्नः ऊनः येन सः नुन्नोनः न पुरुषः अना ननु अपुरुषः खलु ऊनात् भीतः पलायमानस्तु किम् वक्तव्यमिति भावः किञ्च नुन्नः इनः स्वामी यस्य सः नुन्नेनः स न भवतीति ननुन्नेनः नयर्थस्य न शब्दस्य सुप्सुपेति समासः स नुन्नः विद्धः अपि अनुन्नः अविद्धः एव यूयम् अनुन्नस्वामिकत्वात् अनुन्ना एवेति भावः तथा नुन्ननुन्ननुत् अतिशयेन नुन्नाः नुन्ननुन्नाः तान् नुदतीति नुन्ननुन्ननुत् अतिपीडितपीडकः ना पुरुषः अनेना निर्दोषः न भवतीति किन्तु सदोष एवेति नार्तं नातिपरिक्षतं इति निषेधात् इत्यर्थः अयं तु न एतादृशः इति न पलायितव्यमिति भावः अयमेकव्यञ्जनः अन्त्यः तकारस्तु न दोषावहः नान्त्यवर्णस्तु भेदकः इत्यभ्यनुज्ञानात् वरं कृतध्वस्तगुणात् अत्यन्तमगुणः पुमान् प्रकृत्या ह्यमणिश्रेयान् नालङ्कारश्च्युतोपलः वरमिति कृताः पूर्वम् उत्पादिताः पश्चात् ध्वस्ताः नष्टाः ते कृतध्वस्ताः पूर्वकाल इत्यादिना समासः कृतध्वस्ताः गुणाः यस्य तस्मात् पुंसः अत्यन्तम् अतिशयेन अगुणः निर्गुणः पुमान् वरम् मनाक् प्रियः किञ्चित्प्रिय इत्यर्थः वरम् क्लीबे मनाक् प्रिये इत्यमरः तथा हि प्रकृत्या स्वभावेन अमणिः मणिरहितः अलङ्कारः श्रेयान् च्युतोपलः भ्रष्टरत्नः न श्रेयान् उपलः प्रस्तरे रत्ने इति विश्वः पलायितुः समरात् असमर एव वरमिति भावः अत्र समानविषयारोपयोः प्रतिबिम्बकरणात् दृष्टान्तालङ्कारः